अथैकुण विंशोध्याय गौ और गोपों को दमानल से बचाना। श्री शुक उवाच क्रीड़ा शक्तेषु गोपेषु तद्गावो दूरचारिणी स्वैरं चरन्त्यो बिभुषु स्त्रीणलोभे न गह्वरम् अजा गावो महिष्यश्च निर्विशन्त्यो वनाद्वनम् इशिका टवीं निर्विभिषु क्रन्दन्त्यो दावतर्षितः ते पश्यन्तः पशुन् गोपाः कृष्णरामादयस्तदा जातानुत्तापा न विदुर्विचिन्वन्तो गवां गतिम् तृणैस्तत्खुर्दच्छिनैः गोष्पदैरङ्कितैर्गवाम् मार्गमन्वगमन् सर्वे नष्टा जिव्या विचेतसः मुञ्जाटव्याम् भ्रष्टमार्गम् क्रन्दमानम् स्वगोधनम् सम्प्राप्य त्रिषितः श्रान्तास्ततस्ते सन्निवर्तयन् ता आहूता भगवता मेघगम्भीरया गिरा स्वनाम्नाम् निनदम् श्रुत्वा प्रतिनेदुः प्रहर्षितः ततः समन्ताद्वनधूमकेतुर्जदृच्छया भूत्क्षयकृद्वनौकषाम् समीरितः सारथिनोल्बणोल्मुकैर्विलेलिहानः स्थिरजङ्गमान् महान् तमापतन्तम् परितो दवाग्निम् गोपाश्च गावः प्रसमीक्ष्य भीतः ऊचुश्च कृष्णम् सबलम् प्रपन्ना यथा हरिम् मृत्युभयार्दिता जनः कृष्ण कृष्ण महावीर हे रामामित विक्रम दावाग्निना दह्यमानान् प्रपन्नांस्तात्रातुमर्हतः नूनम् तद्बान्धवः कृष्ण न चार्हन्त्यवसीदितुम् वयम् हि सर्वधर्मज्ञ त्वन्नाथास्त्वत्परायणः। श्रीशुक उवाच वचो निशम्य कृपणम् बन्धूनाम् भगवान् हरिः निमीलयतमाभष्ट लोचना नित्यभासत तथेति मृताक्षेषु भगवान् अग्निमुल्वरम् पित्वा मुखेन तान् कृच्छ्रात् योगाधीशोऽभ्यमोचयत् ततश्च त्यक्ष्णि उन्मील्य पुनर्भण्डीरमापितः निशाम्य विस्मितायासन् आत्मानम् गाश्च मोचितः। कृष्णस्य योगवीर्यम् तद्योगमायानुभावितम् दवाग्नेरात्मनः क्षेमम् वीक्षते मे निरेमरम् गाः सन्निवर्त साह्याने स रामो जनार्दन वेणुम् विरणयन् गोष्ठम् अगाद् गोपैरभिष्टुतः। गोपीनाम् परमानन्द आसीत् गोविन्द दर्शने क्षणम् जुगशतमिव यासाम् जेन विना भवत् इति श्रीमद्भागवते महापुराणे परमहंस्याम् संहितायाम् दशमस्कन्धे पूर्वार्धे दवाग्निपानम् नामैकविंशोऽध्यायः।